पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं क्रियते, पश्चादेव पाठः आरभ्यते। महोदय, श्लोकान् स्मारयतु।
येनाक्षरसमान्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्।
धन्यवादः। धातुविज्ञानं तृतीयभागः इति पाठः प्रवर्तमानः अस्ति। धातूनां स्वरविज्ञानं, पदव्यवस्था, इड् व्यवस्था च इति विषयः पूर्वमेव आरब्धः। पदव्यवस्थायाः प्रसङ्गे अस्माभिः किञ्चित् पठितं खलु, तं विषयम् अवलम्ब्य त्रीणि सूत्राणि वयं ज्ञातवन्तः। अनुदात्तनित आत्मनेपदं, स्वरितनित कर्तृभिप्राये क्रियाफले, शेषात् कर्तरि परस्मैपदम्। एतेषां त्रयाणां सूत्राणाम् आधारेण धातुषु पदव्यवस्थाम् अवगतवन्तः। अस्मिन् करपत्रे द्वितीयविषयः इड् व्यवस्था, धातोः परं कीदृशप्रत्ययः अस्ति, प्रत्ययस्य स्वभावः कः, प्रत्ययस्य स्वभावम् अवगन्तुं, प्रत्ययेषु इड् व्यवस्थाम् अवगन्तुं वयं सूत्रद्वयं पठितवन्तः। अर्धधातुकस्य एड् वलादेः नेड् वशीकृति इति सूत्रद्वयं वयं पठितवन्तः। ताभ्यां सूत्राभ्यां धातोः परं कीदृशप्रत्ययः अस्ति, प्रत्ययस्य स्वभावः कः इति अवगतवन्तः। प्रथमं सूत्रम् अर्धधातुकस्य एड् वलादेः इति इडागमविधायकसूत्रम्। द्वितीयं सूत्रं प्रथमसूत्रस्य निषेधकसूत्रं। नेड् वशीकृति इति सूत्रं प्रथमसूत्रस्य निषेधकसूत्रम् इति वयं पठितवन्तः। सारांशः कः? तत्र धातुभ्यः विधीयमानः प्रत्ययः तिङ् नास्ति, षित् नास्ति चेत् अर्धधातुकं शेषः इत्यनेन अर्धधातुकसंज्ञकप्रत्ययः भवति। यः कोऽपि अर्धधातुकसंज्ञकप्रत्ययः धातोः परम् अस्ति चेत् अपि च अर्धधातुकप्रत्ययस्य आदिमवर्णः वल् प्रत्याहारस्थवर्णः अस्ति चेत् तस्य प्रत्ययस्य इडागमः भवति। धातुभ्यः विधीयमानाः प्रत्ययाः तिङ् प्रत्ययाः न सन्ति चेत् कृत् प्रत्ययाः भवन्ति इति अन्या वार्ता। कृदतिङ् इति एकं सूत्रमस्ति, तेन सूत्रेण धातुभ्यः विधीयमानः प्रत्ययः तिङ् नास्ति चेत् कृत् भवति। कृदतिङ् सूत्रेण तादृश आर्धधातुककृत् प्रत्ययः धातोः परमस्ति चेत् प्रत्ययस्य आदौ वश् प्रत्याहारस्थवर्णः अस्ति चेत् तदा इडागमः निषिध्यते इति सम्पूर्णचिन्तनं। तत्र सूत्रद्वयमपि अस्माभिः ज्ञातव्यं, सम्पूर्णचिन्तनं किम् इति मनसि भवेत्। एतत् सर्वं केवलं प्रत्ययानां प्रसङ्गे एव चिन्तनम्। प्रत्ययानां स्वभावम् अवगन्तुं वयम् अभ्यासं कृतवन्तः गते वर्गे। प्रत्ययः इडनुकूलः अस्ति चेदपि धातौ इडनुकूलता नास्ति चेत् तदा इडागमः न भवति। इत्युक्ते प्रत्ययः अपि सेट् भवेत्, धातुः अपि सेट् भवेत्, तदानीम् एव इडागमः भवति। अयं साधारणनियमः, सामान्यनियमः, किन्तु तत्रापि अपवादाः सन्ति। आहत्य प्रत्ययः अपि सेट्, धातुः अपि सेट् चेदेव इडागमः भवति। प्रत्यये इडनुकूलता वर्तते चेदपि धातौ इडनुकूलता नास्ति चेत् इडागमः न भवति, धातुः अनिट् चेत् इडागमः न भवति। अतः धातोः स्वभावः कः इति अपि पृथक्तया परिशीलनीयम्। पूर्वस्मिन् वर्गे प्रत्ययानां प्रसङ्गे वयं ज्ञातवन्तः, अद्यतनवर्गे धातूनां प्रसङ्गे किञ्चित् चिन्तनं करवाम। धातोः स्वभावः कः, धातुः सेट् भवति वा अनिट् भवति वा, तत्र तर्कः कः इति अवगन्तुम् एकं सूत्रमस्ति, एका च उपदेशे अनुदात्तात्। तेन सूत्रेण किम् अवगम्यते? धातौ यः अवशिष्टस्वरः अस्ति, अवशिष्टस्वरः इत्युक्ते इत्संज्ञकवर्णानां लोपकार्यानन्तरम् अनुबन्धवर्णानां लोपकार्यानन्तरं धातौ यः अवशिष्टस्वरवर्णः अस्ति सः स्वरः अनुदात्तः चेत्, अनुदात्तः इत्युक्ते अवशिष्टस्वरवर्णस्य अधोभागे रेखा दृश्यते चेत् सः अवशिष्टस्वरः अनुदात्तः इति वदामः खलु, अतः अवशिष्टस्वरस्य अधोभागे रेखा दृश्यते चेत् सः अवशिष्टस्वरः अनुदात्तः. आहत्य यस्मिन् धातौ अवशिष्टस्वरः एकाच् इत्युक्ते एकः एव अचुवर्णः अस्ति, अपि च सः अवशिष्ट अचुवर्णः अनुदात्तः अपि अस्ति चेत् तदा एकाच उपदेशे अनुदात्तात् सूत्रेण सः धातुः अनिट् भवति, इडागमयोग्यः न भवति. तादृशधातोः परम् इडागमः न भवति. एकाच उपदेशे अनुदात्तात् इति सूत्रेण धातोः अनिटत्वम् उच्यते. एकः एव अचुवर्णः अस्ति चेत् सः अचुवर्णः अनुदात्तः चेत् सः धातुः अनिट् भवति. भिन्नरीत्या वदामश्चेत् यस्मिन् धातौ अवशिष्टस्वरः एकः एव अचुवर्णः अस्ति, अपि च सः स्वरः स्वरितः, स्वरितः इत्युक्ते उपरि चिह्नम् अस्ति अथवा किमपि चिह्नं नास्ति इति स्थितिद्वयमस्ति खलु. इत्युक्ते अधोभागे रेखा अस्ति चेत् अनुदात्तः, उपरि अस्ति चेत् स्वरितः, कुत्रापि चिह्नं नास्ति चेत् उदात्तः इति वयं पठितवन्तः खलु. अत्र एकः एव अचुवर्णः अस्ति, अपि च सः अचुवर्णः स्वरितः इत्युक्ते तस्य उपरि रेखा दृश्यते अथवा किमपि चिह्नं नास्ति. तादृशेषु स्थितिषु अपि सः धातुः सेट् भवति. भिन्नरीत्या उक्तवती, एकाच उपदेशे अनुदात्तात् सूत्रेण एकः एव अचुवर्णः, अपि च सः अचुवर्णः अवशिष्ट अचुवर्णः अनुदात्तः चेत् अनिट् भवति, नो चेत् सेट् भवति इति सारांशः तत्र. इत्युक्ते धातुः सेट् अस्ति चेत् सेट् धातोः परं सेट् आर्धधातुकप्रत्ययः अस्ति चेदेव इडागमः भवति इति अत्र सारांशः. गते वर्गे केषाञ्चन प्रत्ययानां चिन्तनं वयं कृतवन्तः. लृट्लकारः, लृट्लकारः आर्धधातुकलकारः, तत्र स्या इति लकारनिमित्तिकविकरणप्रत्ययः मध्ये आयाति, स्या इति सकारादिप्रत्ययः, अतः इडनुकूलप्रत्ययः. किमर्थं चेत् सकारः वलि अस्ति, अतः लृट्लकारे इडागमः भवितुं शक्नोति. किन्तु तत्र धातौ आनुकूल्यमस्ति वा इत्यपि द्रष्टव्यम्. भूधातुं स्वीकुर्मः चेत् भूधातुः सेट् धातुः, अतः भूधातुतः लृट्लकारप्रत्ययः स्याप्रत्ययस्य योजनेन भविष्यति इति रूपं सिद्ध्यति. पठ् धातुतः पठिष्यति इति रूपं सिद्ध्यति. किन्तु मन् धातुतः मौंस्यते इत्यादिषु इडागमः नास्ति. ल्युट् प्रत्ययः, ल्युट् प्रत्ययः अपि अनिट् प्रत्ययः. अनुबन्धवर्णानां लोपकार्यानन्तरं यु अवशिष्यते, यकारः वलि नास्ति. वल् प्रत्याहारे यकारं विहाय अन्यानि व्यञ्जनानि इति वयं पठितवन्तः. एवमेव णुवुल्, णुवुल् प्रत्ययः आर्धधातुकः, आर्धधातुकं शेषः इत्यनेन आर्धधातुकः. अपि च कृत् प्रत्ययः, अतः वलादिः अपि च वश्वर्णः अस्ति वा इत्यपि चिन्तनीयम्. णुवुल् इत्यत्र वु अवशिष्यते, वु इत्यत्र वकारः अस्ति, वकारः वलि अस्ति, अपि च वशादिवर्णः, वकारः वशादिः अपि, अतः णुवुल् प्रत्ययः इडनुकूलः नास्ति, अनिट् प्रत्ययः. एवमेव अनियर् प्रत्ययः अनुबन्धवर्णानां लोपकार्यानन्तरम् अकारः अवलादिः, इत्युक्ते वलादिः एव नास्ति. तदर्थम् अस्माकं चिन्तनं तत्र एव स्थगितं भवति. एवं रीत्या प्रत्ययानां चिन्तनं वयं कृतवन्तः. अद्य धातूनां प्रसङ्गे ज्ञातव्यं कीदृशधातुः सेट् भवति, कीदृशधातुः अनिट् भवति. एतदवगन्तुं सूत्रमस्ति, तत् सूत्रं भवन्तः सर्वे पठितवन्तः गते वर्गे. किन्तु अद्य पुनस्मरणार्थं किञ्चित् एकवारम् अवलोकयाम. सूत्रात् आरभ्य अद्य परिशीलयाम. धातोः स्वभावः एकाच उपदेशे अनुदात्तात् इति सूत्रात् आरभ्य पठेम. गोमती भगिनी कृपया पठतु.
धातोः स्वभावः, श्रूयते वा? धातोः स्वभावः इदानीं श्रूयते?
हरि ओं, मन्दमेव श्रूयते, ध्वनिः सम्यक् नास्ति इति अहं चिन्तयामि. ध्वनिः न श्रूयते सम्यक्,
मन्द मन्द अस्ति भगिनि.
धातोः स्वभावः
किञ्चित् पठतु भगिनि, किञ्चित् पठतु. वि विल् नो.
एकाच उपदेशे अनुदात्तात् सप्तमाध्याये द्वितीयपादे दशमसूत्रम्, यः औपदेशिकधातुः एकाच् अपि अनुदातः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति.
अहं किं चिन्तयामि, तत्र हेड्फोन् भवती स्वीकरोति चेत् सम्यक् श्रोतुं शक्नुमः.
नरेश महोदय पठतु.
एकाच उपदेशे अनुदात्तात् यः औपदेशिकधातुः काच् अपि अनुदात्तः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमो न भवति. उपदेशे यो धातुर एकाच् अनुदात्तश्च तत् आर्धधातुक स्येड् न. यस्मिन् धातौ एकः एव स्वरः वर्तते सः धातुः एकाच्. उपदेशे नाम पाणिनेः धातुपाठे अयं धातुः अन्तर्भूतः. औपदेशिकधातुः यथा पठं लिखं डुपचंश न तु आतिदेशिकधातुः यथा प्रेरणार्थक निचि पाठि लेखि पाचि. एकोच् यस्मिन् स एकाच् बहुव्रीहिः तस्मात् एकाचः पञ्चम्यन्तम् उपदेशे सप्तम्यन्तम् अनुदात्तात् पञ्चम्यन्तम् त्रिपदं सूत्रं ऋत इद् धातोः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः नेड् वशीकृति इत्यस्मात् न इट् इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् उपदेशे एकाचः अनुदात्तात् धातोः अङ्गात् न इट्. अत्र धातुः स्वभावविषये दत्तं. यदि उपदेशे धातोः एकाच् केवलम् एकः अस्ति अपि च तत् अनुदात्तः स्वरः अस्ति तत्र इडागमः न भवति. एतत् उपदेश धातु विषये वदति न तु आतिदेशिकधातु विषये. उपदेशधातु अस्ति यः महर्षि पाणिनिः दत्तम् अस्ति. यदि उदाहरणं सन्ति पठं लिखं डुपचंश तत्तु औपदेशिकधातुः सन्ति. अन्यत् आतिदेशिकधातु अथवा प्रेरणार्थकधातु लेखि पाचि सन्ति. अत्र एकाच उपदेशे अनुदात्तात् अपि धातोः अनुवृत्तिः अपि अस्ति अपि च एक अन्यसूत्रं नेड् वशीकृति. तत्रापि यदि कृत् प्रत्ययः अस्ति तत्र आदौ वश् अस्ति चेत् तत् इडागम न भवति. तत् अस्ति.
साधु महोदय, तदेव अत्र अस्ति. अनुदात्तः इति पदमस्ति खलु. अनुदात्तः इति कीदृशं पदम् इति परिशीलयामश्चेत् न उदात्तः अनुदात्तः, अश्वः अनश्वः, एकम् अनेकम्, एवमेव अनुदात्तः इत्यत्रापि न उदात्तः अनुदात्तः. उदात्तः इति पदं कथं निर्मितम् इत्युक्ते उत् उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, दा धातुतः, क्ताप्रत्ययस्य योजनेन उदात्त इति रूपं सिद्ध्यति. उत्योगः आयोगः, दायोगः क्ता, क्तान्तरूपम् उदात्त इति. यः उदात्तः नास्ति सः अनुदात्तः. तस्मिन् पदे नैसमासः अस्ति. उदात्त इत्यत्र ऊकारः अस्ति खलु, अच्वर्णः अस्ति इति कारणतः तस्मान्नुडचि इति सूत्रेण नुट् आगमः भवति. अतः एव उदात्त इत्यस्य विरोधार्थकशब्दः अनुदात्तः. इत्युक्ते तत्र नञ् समासः अस्ति इति एका वार्ता. न अश्वः अनश्वः, न एकम् अनेकम्, न एकाच् अनेकाच्. न एकाच् इत्युक्ते एकः एव अचुवर्णः अस्ति चेत् एकाच्. एकस्मात् अधिकाः, तदधिकाः, द्वौ अथवा बहवः अचुवर्णाः सन्ति चेत् अनेकाच् भवति. एकाच् अथवा अनेकाच् एतत् पदद्वयं धातोः विशेषणं भवति. इदं सूत्रम् इडागमनिषेधकसूत्रम् इति वक्तुं शक्यते. अनेन सूत्रेण धातोः अनिटत्वम् उच्यते. अनेन सूत्रेण धातुः अनिट् भवति. अनिट् इति धातोः विशेषणं. नायिट् यस्य सः इति अनिट्. अनेन धातुः अनिट् भवति इति एका वार्ता. इत्युक्ते धातोः स्वभावम् अवगन्तुम् इदं सूत्रम् आवश्यकम्. इडागमनिषेधकसूत्रम् इदम्. सूत्रस्य प्रसङ्गे इतोपि परिशीलनं कर्तुमिच्छामश्चेत् सुन्दरमहोदय, सूत्रं पश्यतु एकवारं, वदतु सूत्रे पदानि कानि.
एकाच उपदेशे अनुदात्तात् त्रीणि एकाच उपदेशे अनुदात्तात् त्रीणि पदानि सन्ति इति मन्ये.
एकाचः इति वक्तव्यं, विसर्गस्य लोपः भवति खलु.
लोपः भवति, आम् आम्.
एकाच् इति पदमस्ति चेत् तस्य विभक्तिः का?
एकाच् इति कथनेन तस्य विभक्तिः प्रथमा विभक्ति भवति. एकाच् इति कथनेन
प्रथमा विभक्ति एकवचनं भवति खलु.
एकवचनमेव.
अत्र पञ्चम्यन्तं दत्तमस्ति. एकाचः
लोपः भूत्वा एकाच इति अत्र सूत्रे अन्तर्भूतः अस्ति.
अपि च अत्र उपदेशे इति दत्तमस्ति, तस्मिन् प्रसङ्गे वदतु.
उपदेशे इति सप्तमी विभक्ति अस्ति. यदि उपदेश अवस्थायां, यदि उपदेश अवस्थायाम् अस्ति चेत् तत्र एकाच् औपदेशिक अवस्थायां यः धातुः अस्ति सः धातुः यदि एकाच् अपि अनुदातः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः भवति इति सूत्रस्य अर्थः भवति.
उपदेशे इति सप्तम्यन्तं पदमस्ति चेदपि साधारणतया सूत्रेषु सप्तम्यन्तं पदमस्ति चेत् किं वदामः, पूर्वकार्यं परनिमित्तं. किन्तु अत्र तादृश स्थितिः नास्ति. उपदेशे इति विषयसप्तमी, उपदेशावस्थायाम् इति अर्थः. अनुदात्तात् इति पञ्चम्यन्तं पदमस्ति. अत्र उपदेशे अनुदात्तात् द्वयोर्मध्ये सन्धिकार्यमस्ति, वदतु.
उपदेशे अनुदात्तात् अत्र पूर्वरूपसन्धिः भवति. उपदेशे अनुदात्तात् इति उपदेशे अनुदात्तात् इति पूर्वरूपसन्धिः द्वयोः पदयोः मध्ये पूर्वरूपसन्धिः भवति.
सन्धिः अस्ति इति कारणतः तत्र अवग्रहचिह्नं स्थापितमस्ति. पूर्वरूपसन्धेः सूत्रं वदति वा?
पूर्वरूपसन्धि सूत्रं विस्मृतवान्.
गोमती भगिनी कृपया वदतु.
एनः पदान्तात् अति.
उत्तमम्.
एनः पदान्तात् अति इति सूत्रेण तत्र उपदेशे एकारः अस्ति, अनुदातात् इति ह्रस्व अकारः अस्ति. अतः एनः परे ह्रस्व अकारः अस्ति चेत् तत्र पूर्वरूपमेव तिष्ठति, अकारस्य अन्तर्धानं करोति. अतः उपदेशे अनुदातात् इति अस्माकं ग्रह अवग्रहणार्थम् अत्र चिह्नम्
अस्माकम् अवगमनार्थम् अवग्रहचिह्नं स्थापितमस्ति. उत्तमं भगिनि. अत्र एङ्गः पदान्तादति इति सूत्रमस्ति. एङ्गः, एङ्गः इत्युक्ते एङ् प्रत्याहारस्थवर्णः पूर्वमस्ति. पञ्चम्यन्तम् एङ्गः इति पदान्तात् अति इत्युक्ते तत्र अति इति कथनेन तपरकरणं कृतमस्ति. इत्युक्ते पदान्तात् एङ् वर्णात् अतिपरे, अतिपरे इत्युक्ते अत् इति कथनेन तत्र तपरकरणमस्ति. ह्रस्वकारः अस्ति चेत् तदा सन्धिकार्यं भूत्वा पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशः भवति.
अत्र विसर्गस्य लोपः भो खगो अघो अपूर्वस्य यो अशि इति सूत्रेण भवति वा? पूर्वम् अवर्णः अस्ति, अनन्तरम् अश् प्रत्याहारस्य उकारः अस्ति, अतः तत्र यकारः आगच्छति विसर्गस्य स्थाने. विसर्गस्य स्थाने सहजशो ऋतु, अनन्तरं ऋत्वं भवति, तत्र रेफस्य स्थाने यकारः आगच्छति. एकाच य इति अस्ति, लोपः शाकल्यस्य इति विकल्पेन एकाचयु उपदेशे अनुदातात् अथवा एकाच उपदेशे अनुदातात् इति यकारलोपः.
भो भगो अघो अपूर्वस्य योषि, योषि इति कथनेन तत्रापि अश् प्रत्याहारस्थवर्णः परः अस्ति चेत् सुलभतया अवगन्तुमिच्छामश्चेत् तत्र विसर्गसन्धिकार्यं भवति. यद्यपि पञ्चम्यन्तं पदम् एकाचः इति, एकाच इति लिखितम् अस्ति. इदानीं वयम् अनुवृत्तिसहितसूत्रं पश्यामः. वदतु.
परन्तु भगिनी अवगतम्. वाट् एवर् शी सेस् वी अण्डर्स्टेण्ड्.
अग्रे गमनात् पूर्वम् अनुवृत्तिसहितसूत्रम् एकवारं पश्यन्तु. अनुवृत्तिसहितसूत्रं कीदृशम् अस्ति इति अवलोकयाम. रोहिणी भगिनी, अनुवृत्तिसहितसूत्रं दृष्ट्वा भवत्याः अवगमनं किं? वदतु.
धातु अनुबन्धलोपानन्तरम् एकाच भवति चेत् तथा अनुदात्तः अपि भवति चेत् अङ्गात् परः इट् न भवति, इडागमः न भवति. धातुः इडानुकूलः नास्ति.
एकवारं पदानि पश्यन्तु. उपदेशे इति विषयसप्तमी, एकाचः इति पञ्चम्यन्तम्, अनुदात्तात् इति पञ्चम्यन्तं, धातोः पञ्चम्यन्तम्, अङ्गात् पञ्चम्यन्तं, न अव्ययपदम्, इत् प्रथमान्तं पदम्. अत्र विशेषणविशेष्य भावः अस्ति. कोऽपि वक्तुमिच्छति वा अत्र विशेषणविशेष्य भावः कीदृशः, अत्र विशेष्यं किं, विशेषणं किम् इति वक्तव्यम्? अत्र विशेष्यमस्ति अङ्गात्, अङ्गात् इति विशेष्यमस्ति. कीदृशम् अङ्गं? धातुरूपी अङ्गम्. इतोपि वर्णयितुमिच्छामश्चेत् विशेषणानि सन्ति तत्र. अङ्गम् इतोपि कीदृशम्? अनुदात्तात् अङ्गम्. इतोपि एकाच अङ्गम् आहत्यत्र धातुरूपी अङ्गम्, अनुदात्त अङ्गम्, अपि च एकाच अङ्गम्. अङ्गम् इत्यस्य विशेषणानि अन्यानि पदानि इति अत्र वार्ता. विशेषणविशेष्य भावः अस्ति. सूत्रार्थं संक्षेपेण वक्तुमिच्छामश्चेत् एकाचः अनुदात्तात् धातुरूपी अङ्गमस्ति चेत्, धातुरूपी अङ्गमस्ति चेत्, धातुरूपी अङ्गं कथं भवेत्? एकाच भवेत्, अनुदात्तः अपि भवेत्. तादृश अङ्गमस्ति चेत् अथवा तादृशधातोः परं प्रत्ययस्य इळागमः न भवति, न इट्. अत्र निषेधककार्यम् अस्ति. व्याकरणे विधिः भवति अपि च निषेधः अपि भवति. अत्र कार्यं किम्? इडागमनिषेधककार्यं भवति. एकाच अनुदात्त धातुरूपी अङ्गात् परं यः प्रत्ययः अस्ति तादृशप्रत्ययस्य इडागमः न भवति इति अत्र मुख्या वार्ता. यस्मिन् धातौ एकः एव अचुवर्णः अस्ति अपि च सः अचुवर्णः अनुदात्तः चेत्, अनुदात्तः इत्युक्ते अधोभागे रेखा अस्ति चेत्, तादृशधातुः इडनुकूलः नास्ति. सः धातुः अनिट् अथवा तादृशधातोः परं प्रत्ययस्य इडागमः न भवति इति अत्र सारांशः. अपि च अस्मिन् परिच्छेदे आतिदेशिकाः औपदेशिकाः इति लिखितम् अस्ति. सुन्दरमहोदय वदतु, औपदेशिकाः के?
यः धातुः पाणिनिमहर्षेः उपदेशं कृतम् उपदेशः कृतः सः धातुः औपदेशिकधातुः इति उच्यते. यः धातुः अस्माभिः इत् अनुबन्धलोपानन्तरम् अवशिष्यते सः धातुः लौकिकधातुः, सः आतिदेशिकधातुः इति उच्यते.
न, त्रीणि भिन्नानि पदानि सन्ति. औपदेशिकधातुः, लौकिकधातुः, आतिदेशिकधातुः. वदतु.
अनुबन्धलोपानन्तरं यः धातुः धातोः रूपम् अवशिष्यते सः धातुः लौकिकधातुः एव, परन्तु आतिदेशिकधातुः इति तस्य भेदः कः? लौकिकधातोः आतिदेशिकधातोर्मध्ये भेदः कः इति?
पाणिनिना ये धातवः धातुपाठे आदौ उपदिष्टाः, पाणिनिना ये धातवः धातुपाठे उपदिष्टाः ते औपदेशिकाः, अथवा यः धातुः धातुपाठे लभ्येते सः धातुः औपदेशिकः. औपदेशिकधातुतः अनुबन्धवर्णानां निष्कासनानन्तरं लौकिकधातोः रूपं साधयामः. लौकिकधातोः रूपम् उपयुज्य तिङन्तपदानि अथवा कृदन्तपदानि निर्मामः. आतिदेशिकाः के इत्युक्ते सनादिप्रत्ययाः द्वादशप्रत्ययाः सन्ति. सनादिप्रत्ययेषु अन्यतमप्रत्ययं योजयित्वा धातोः परं योजयित्वा नूतनधातोः निर्माणं कुर्मः. इत्युक्ते अस्माभिः निर्मितः धातुः णिच् प्रत्ययस्य योजनेन अथवा सन् प्रत्ययस्य योजनेन तत्र द्वादश सन्नादयः प्रत्ययाः सन्ति. यः धातुः धातुपाठे न लभ्यते किन्तु अस्माभिः निर्मितः, अपि च सन्नादिप्रत्ययेषु अन्यतमप्रत्ययस्य योजनेन यः नूतनधातुः निर्मितः भवति सः धातुः आतिदेशिकः. उदाहरणार्थं डुपचांश् इति औपदेशिकधातुः, पच् इति लौकिकधातुः, पाचि इति आतिदेशिकधातुः. पाचि इति णिच् प्रत्ययस्य योजनेन निर्मितः धातुः. उदाहरणार्थं पठं इति औपदेशिकधातुः, लौकिकधातुः पठ्. पाठि इति आतिदेशिकधातुः. एवमेव लिखौ इति औपदेशिकधातुः, लिख् इति लौकिकधातुः, लेखि इति आतिदेशिकधातुः. किमर्थं वदन्ती अस्मि? णिच् प्रत्ययः अस्माभिः परिचितः, वयं जानीमः इति कारणतः णिच् प्रत्ययस्य उदाहरणं वदन्ती अस्मि. धातुः औपदेशिकधातुः भवेत्, न तु आतिदेशिकधातुः. औपदेशिकधातौ अनुबन्धवर्णानां लोपकार्यानन्तरम् एकः एव स्वरवर्णः अस्ति चेत् सः धातुः एकाच्. किन्तु आतिदेशिकधातून् पश्यन्तु, पाठी इति कथनेन तत्र एकस्मात् अधिकाः अच्वर्णाः सन्ति. पाठी इत्यत्र द्वौ अच्वर्णौ स्तः. खादि, पाचि, गमि, पाठी इत्यादिषु अनेके अच्वर्णाः, इत्युक्ते एकस्मात् अधिकाः. अनेके इति कथनेन एकस्मात् अधिकः इति अर्थः अस्ति. अत्र एकाच् धातुः अस्ति, अपि च अनुदात्तः अस्ति चेत् अनिट् भवति. किन्तु आतिदेशिकधातोः रूपाणि न स्वीकुर्मः. आतिदेशिकधातवः सर्वे अनेकाचः प्रायशः, अतः आतिदेशिकधातवः सेटः भवन्ति. यस्मिन् धातौ एकस्मात् अधिकः अचुवर्णः अस्ति चेत् सः धातुः अनेकाच् भवति, अपि च अनेकाच् धातवः सेटः भवन्ति. इत्युक्ते इदं सूत्रम् औपदेशिकधातूनां प्रसङ्गे एव प्रवर्तनीयम्, आतिदेशिकधातूनां प्रसङ्गे अस्य सूत्रस्य प्रसक्तिः नास्ति. औपदेशिकधातूनां प्रसङ्गे धातुः एकाच् अनुदात्तः अस्ति चेत् अनिट् भवति इति उक्तम्. इतोपि अन्या वार्ता का? औपदेशिकधातुषु केचन धातवः, इत्युक्ते परिगणितधातवः, सेलेक्टेड् धातवः एव अनेकाचः सन्ति. पुनः वदामि, औपदेशिकधातुषु परिगणितधातवः एव अनेकाचः सन्ति. यथा दरिद्रा, दरिद्राधातो बहवः अचुवर्णाः सन्ति. उपदेशावस्थायाम् एव अयं धातुः आतिदेशिकः नास्ति, औपदेशिकः एव. औपदेशिकधातौ एव अनेके अचुवर्णाः सन्ति, सः धातुः अनेकाच्. धातुः अनेकाच् इति कारणतः सः धातुः सेट् भवति. तदर्थमेव लृट्लकाररूपाणि पश्यामश्चेत् दरिद्रिष्यति, दरिद्रिष्यतः, दरिद्रिष्यन्ति एवं लृट्लकाररूपाणि भवन्ति. इत्युक्ते धातुः अनेकाच् अस्ति, अनेकाच् अस्ति इति कारणतः सेट् भवति. सेट् इत्युक्ते इडागमयोग्यः धातुः. आहत्य आतिदेशिकधातवः अनेकाचः, अतः सेटः. आतिदेशिकधातवः इत्युक्ते अस्माभिः निर्मितः धातवः इति वार्ता. अस्माभिः निर्मितः धातवः णिच् वा अथवा णिङ् वा सन् वा एतादृशप्रत्ययेषु अन्यतमप्रत्ययस्य योजनेन आतिदेशिकधातोः निर्माणं भवति. तेषु साधारणतया अनेके अचुवर्णाः सन्ति, अतः इत्युक्ते इड् अनुकूलाः पाठि इति रूपं पश्यन्तु तत्र एकस्मात् अधिकः अच्वर्णः अस्ति इति कारणतः अनेकाच् अपि च सेट् द्वितीयपरिच्छेदं नरसिंह हेग्डे महोदय कृपया पठतु
यद्यपि उपदेशे इत्यनेन मूलधातु इत्युक्तं परन्तु एकाच् इत्यस्य कृते यदा स्वराणां गणनं भवति तदा अनुबन्धेषु ये स्वराः सन्ति ते गणेन अन्तर्भूताः यथा डुक्नु इति धातौ यद्यपि उकार अपि ऋकार अपि स्तः किन्तु उकार अनुबन्धे अस्ति अतः तस्य गणनं न भवति डुक्नु एकाच् अस्ति अत्र उपदेशे इत्युक्ते अनुबन्धस्वराणां गणनं न भवति अत्र अनुबन्धस्वराणां निष्कासनानन्तरं यः स्वरः तिष्ठति तत् तस्य एव गणनं भवति एकाचित् स्वरस्य गणने यदि वयं पश्यामः डुक्नु इति धातु तत्र कृ इति ऋकारः अस्ति अनन्तरम् उकारः अपि अस्ति डु परन्तु अत्र तत्र डु आदिमवर्णसमूहे संज्ञा भवति कृ एव अवशिष्यते अथवा कृ मध्ये र अस्ति तदेव गणनं भवति अत्र तदेव दत्तमस्ति अत्र
डुक्रु इति औपदेशिकधातुः अस्ति अत्र अनुबन्धवर्णानां लोपकार्यं कथं भवति वदतु
डुक्रु इति आदिर्निटुडु इत्यनेन आदिमडुकाज्ञा भवति तस्य लोपः भवति अन्तिमनकारः अलन्त्यम् इत्यनेन इत्संज्ञा भवति तस्य लोपः भवति कृ एव अवशिष्यते
कृ इति लौकिकधातुः अस्मिन् परिच्छेदे मुख्यवाक्यं किम्
अस्मिन् परिच्छेदे मुख्यवाक्यं यदा स्वराणां गणनं भवति तदा अनुबन्धरूपे ये स्वराः सन्ति ते गणनं नान्तर्भूता एतदेव मुख्यवार्ता तदा अनुबन्धेषु ये स्वराः सन्ति ते गणनं नान्तर्भूताः
इत्युक्ते अनुबन्धवर्णानां निष्कासनानन्तरम् एव गणना क्रियते अथवा गणनां कुर्मः आदौ अनुबन्धवर्णानां निष्कासनं करणीयं तस्मात् परमेव एकाचित् धातुः कः एकः एव अच्वर्णः तस्मिन् धातौ अस्ति इति ज्ञातुं गणनां कुर्मः खलु तादृशं गणनं अनुबन्धवर्णानां लोपकार्यानन्तरम् एव करणीयं दरिद्रा इत्यत्र कीदृशी स्थितिः अस्ति
दरिद्रा अनेक अच् अस्ति अत्र मूलरूपे एव दरिद्रा अस्ति अत्र दकारोत्तरवर्ति अकारः अस्ति उत्तरवर्ति ईकारः अस्ति अनन्तरं पुनः दकारोत्तरवर्ति आकारः अस्ति अच् त्रयम् अस्ति अत्र अतः अनेकाच् अस्ति अत्र सेट् भवति
जागृ इति एकः धातुः अस्ति तत्र कीदृशी स्थितिः अस्ति
जागृ इत्यत्र तत्रापि जकारोत्तरवर्ति आकारः अस्ति अनन्तरं गकारोत्तरवर्ति ऋकारः अस्ति अत्रापि अच् द्वयम् अस्ति स्वरद्वयम् अस्ति अतः सेट् भवति
अपि च एकः अन्य धातुः अस्ति चकास् चकास् इत्यपि अनेकाच् धातुः एव इत्युक्ते दरिद्रा जाग्र चकास् वेविङ् एतादृशधातवः अनेकाचः
परन्तु सङ्ख्या अधिकं नास्ति किमपि धातु चार् पञ्च च चतुष्टयं तत्रैव तदेव अस्ति अत्र अनेकाच् बहु धातु एकाच् एव अस्ति
उत्तमं महोदय अस्माकं परिचितधातवः बहवः धातवः एकाचः एव सन्ति यानि यानि उदाहरणानि उक्तवती दरिद्रा जागृ चकास् वेविङ् एते धातवः अनेकाचः उपदेशावस्थायाम् एव किन्तु अस्माकं परिचितधातवः बहवः धातवः एकाचः एव एकाच् इति वक्तुं स्वराणां गणनं करणीयं खलु अनुबन्धवर्णान् निष्कास्य एव तत्र द्रष्टव्यं भवति पूर्वस्मिन् सूत्रे अनुदात्तेत् इति न लिखितं पश्यन्तु अनुदात्तेत् इति कथनेन किं भवति वदतु महोदय
अनुदात्तेत् इति कथनेन अनुदात्त संज्ञकस्वरस्य इत्संज्ञा भवति
तत्र भेदः अवगन्तव्यः सर्वैः अनुदात्तेत् इति कथनेन अनुदात्तस्वरः इति संज्ञकः अस्ति इति अर्थः किन्तु सूत्रे किं लिखितम् अनुदात्तात् इति लिखितं भेदः अस्ति खलु
अत्र अवशिष्टस्वरस्य कृते अनुदात्तात् इति अस्ति अनुदात्तेत् इत्युक्ते तस्य निष्कासनं भवति अनुबन्धलोपे भवति
साधु महोदय धन्यवादाः
भगिनी एक संशय भेदः अस्ति डुक्रेण विषये वयं लौकिकधातुः प्रयुज्यते परन्तु प्रथमं तु वयं पठितवन्तः उपदेशे अनुदात्तात् तत्र उपदेशे अनुदात्तात् वयं पठितवन्तः अत्र डुक्रेण विषये लौकिकधातुः प्रयुज्यतां तत् भेदः अस्ति
वदतु महोदय प्रश्नः अस्ति वा अत्र
प्रश्नः अत्र डुक्रेण विषये वयं लौकिकधातुः पश्यामः परन्तु सूत्र तु अस्ति उपदेशे अनुदात्तात् तत्र संशयः अस्ति
पश्यतु अत्र उपदेशावस्थायां धातोः रूपं डुक्रुञ् अस्ति अनुबन्धवर्णानां निष्कासनानन्तरम् इत्युक्ते महोदयेन उक्तमेव ञकारः इति संज्ञकः हलन्तीमित्यनेन अपगच्छति डु इति वर्णसमुदायः आदिर्निटुडवः इत्यनेन अपगच्छति आदौ अनुबन्धवर्णाः निष्कासनीयाः लौकिकधातुः क्रु अस्ति क्रु इत्यत्र एकः एव अचुवर्णः अस्ति ऋकारः एव अचुवर्णः सः ऋकारः कीदृशः ऋकारस्य अधोभागे रेखा अस्ति वा इति द्रष्टव्यं रेखा अस्ति चेत् अनुदात्तः भवति सः धातुः अनुबन्धवर्णानां निष्कासनानन्तरम् एकाचि धातुः अनुबन्धवर्णानां निष्कासनानन्तरम् एव सः धातुः एकाचि वा अनेकाचि वा तत्र कति स्वरवर्णाः सन्ति इति गणना क्रियते तादृशगणनम् अनुबन्धवर्णानां निष्कासनानन्तरम् एव भवति
परन्तु अत्र उपदेशे इति लिखितं किल तस्मात्
उपदेश इत्युक्ते आतिदेशिकधातवः न
ओ धातुः
आतिदेशिकधातून् मा स्वीकुर्वन्तु अत्र केवलम् उपदिष्टधातूनां प्रसङ्गे एव इति अवगन्तुं
लौकिकविषयः नास्ति आतिदेशिकविषये अस्ति अस्तु अस्तु
उपद्विसहस्रं धातवः अप्राक्सिमेट्लि 2000 ये धातवः पाणिनिना धातुपाठे उपदिष्टाः सन्ति ते एव औपदेशिकाः औपदेशिकधातूनां प्रसङ्गे एव अस्य सूत्रस्य प्रसक्तिः अस्ति आतिदेशिकाः इत्युक्ते सनादिप्रत्ययेषु अन्यतमप्रत्ययस्य योजनेन अस्माभिः निर्मितः धातुः ते धातवः अनेकाचः भवन्ति इत्युक्ते णिच् योजनेन णिच् इत्यस्मात् चकारसहितसंज्ञा णकारसहितसंज्ञा भूत्वा इ अवशिष्यते पठ् धातुतः पाठि इति नूतनधातोः निर्माणं भवति अयं पाठी धातुः धातुपाठे न लभ्यते पठौ इति रूपमेव धातुपाठे द्रष्टुं शक्नुमः औपदेशिकधातूनां प्रसङ्गे अस्य सूत्रस्य प्रसक्तिः भवति स्वराणां गणनमपि अनुबन्धवर्णानां निष्कासनानन्तरं करणीयम् उपदेशावस्थायां न्यूनाः धातवः केचन परिगणितधातवः एव अनेकाचः सन्ति आधिक्येन औपदेशिकधातवः एकाचः एव अस्माभिः परिचितधातवः औपदेशिकधातवः एकाचः इत्युक्ते अनुबन्धवर्णानां निष्कासनानन्तरं द्रष्टव्यं पुनः स्मर्तव्यः अंशः चुरादिगणीयधातूनां प्रसङ्गे चिन्तनं कुर्मः चेत् चुरादिगणे स्वार्धे अपि णिच् प्रत्ययः विहितः भवति साधारणतया अन्येषु गणेषु प्रेरणार्थे णिच् विहितः भवति णिच् प्रत्ययः प्रेरणार्थे विहितः भवति प्रत्येकं प्रत्ययस्य अर्थः अस्ति इच्छादिषु सन् प्रत्ययः प्रेरणार्थे अणिच् प्रत्ययः एवं धातुभ्यः प्रत्ययस्य योजनेन नूतनधातोः निर्माणं भवति चुरादिगणे स्वार्धे अपि णिच् विधीयते णिच् प्रत्ययस्य योजनेन सः धातुः अनेकाच् भवति चेत् सेट् भवति किन्तु मया किं पठितम् इत्युक्ते चुरादिगणे अपि णिच् केभ्यश्चित् धातुभ्यः विकल्पेन विहितः भवति केभ्यश्चित् धातुभ्यः चुरादिगणे विकल्पेन णिच् विहितः भवति विकल्पेन भवति इत्युक्ते एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति यस्मिन् पक्षे णिच् भवति तदा सः धातुः अनेकाच् भवति चुरादिगणे अपि यस्मिन् पक्षे णिच् न विहितः भवति तत्र धातुः एकाचि एव तिष्ठति इति तत्र वार्ता सुजाता भगिनी भवती पठतु
भगिनी तस्य उदाहरणम् अपि अस्ति वा णिच् विना णिच् विना चुरादिगणे कोऽपि प्रत्यय धातुः अस्ति अस्ति वा
अस्ति कक्षायाः अनन्तरं प्रेषयामि आशयः कः इत्युक्ते तादृशी स्थितिः अपि चुरादिगणे अस्ति इति वक्तुमिच्छामि भगिनी वदतु.
अनेकाचः धातवः सर्वे सेटः भवन्ति. अस्माकं परिचितेषु धातुषु आधिक्येन एकाच धातवः एव सन्ति. ये तु भवती उक्तवती सनन्तादिषु आदिदेशिका धातुषु अनेकाचः धातवः बहवः, परन्तु ते उपदेशे न अन्तर्भूताः. सनादिषु प्रत्यय आतिदेशः धातु अस्ति, अनेका च भवति. बहवः धातवः अनेकाचः भवन्ति, परन्तु ते उपदेशे उपदेशावस्था अन्तर्भूतः नास्ति. उपदेशे केचन एव यदा दरिद्रा धातुः अनेकाचः, अनेका च दरिद्रा धातु इच्छने ये अनेका च धातुः अस्ति.
उपदेशे केचन एव अनेकाचः सन्ति, न्यूनाः धातवः उपदेशे अनेकाचः, यथा जागृ, चकास, दरिद्रा, वेविङ्, एते धातवः. सुन्दरमहोदय, कानिचन पदानि वदतु, तिङन्तपदानि, सम्प्रत्ययान्तयुक्तानि पदानि वदतु. भवन्तः सर्वे श्रुतवन्तः खलु, जिगमिषति, पिपठिषति,
चोरयति.
चोरयति णिच् अस्ति, किन्तु सन्प्रत्ययस्य योजनेन
स्या प्रत्ययं भवति.
सन् प्रत्ययः इच्छार्थे सन् पिपठिष्यति. उत्तमं. वयं सर्वे श्रुतवन्तः खलु, जिज्ञासा, पिपासा, जिगमिषति, पिपठिष्यति. साधारणानि पदानि जिज्ञासा, पिपासा, चिकित्सा, मुमुक्षा,
चिकीर्षति,
चिकीर्षति. कृ धातुतः चिकीर्षति, पठ धातुतः पिपठिष्यति, गम् धातुतः जिगमिषति. उत्तमं. पठ धातुतः सन् प्रत्ययस्य योजनेन पिपठिष इति नूतनधातोः निर्माणं भवति. तत्र तिङन्तम् अपि साधयितुं शक्नुमः, कृदन्तानि अपि साधयितुं शक्नुमः. इत्युक्ते अस्माभिः निर्मितः धातुः पिपठिष इति. तत्र द्वित्वं भवति तादृशेषु रूपेषु. सन्नन्तपदानि इमानि पदानि, सन्प्रत्ययान्तरूपाणि, जिगमिषति. सुजाता भगिनी भवती करोतु अग्रे.
ये धातवः एकाचः सन्ति तेषु ये उदात्तः स्वरितः सन्ति ते अपि सेटः. धातवः एकाचः सन्ति तेषु उदात्तः या स्वरितः अस्ति चेत् ते धातवः सेटः भवन्ति. अतः अनुदात्तात् धातोः.
भगिनी अत्र अतः भिन्नं पदं, यतः भिन्नं पदं खलु?
आम् आं भगिनी
वदतु.
यतः अनुदात्तात् धातोः एव वलादिः अर्धधातुकप्रत्ययस्य इडागमः निषिद्धः इति सूत्रेण उक्तम्. यतः अनुदात्तात् धातोः एव वलादि अर्धधातुकप्रत्ययस्य इडागमः निषिद्धः. अनुदात्तात् अस्ति चेत् वलादि अर्धधातुक सूत्रमस्ति, अर्धधातुक सेट् वलादे इत्यस्य निषिद्धः भवति.
अनुदात्तात् धातोः
एव वलादि अर्धधातुकप्रत्ययस्य इडागमः निषिद्धः. अर्धधातुक सेड् वलादि इत्यस्य इडागमः भवति. ये निषिद्धसूत्रम् अस्ति, एकाच् अनुदात्तेत् निषिद्धः सूत्रं निषिद्धं भवति.
सत्यभामा भगिनी, अस्मिन् परिच्छेदे भिन्नरीत्या किं लिखितम्?
प्रत्ययस्य स्वभावः इत्यस्य द्वितीयपरिच्छेदः खलु.
ये धातवः एकाचः सन्ति सारांशरूपेण लिखितम् अस्ति अत्र. इत्युक्ते अनुबन्धवर्णानां लोपकार्यानन्तरं यः धातुः एकाच् अस्ति सः धातुः अनुदात्तः चेत् तस्मात् परं वलादि अर्धधातुकप्रत्ययः अस्ति चेदपि इडागमः न भवति. एकाच् धातुः अस्ति किन्तु उदात्तः अस्ति अथवा स्वरितः अस्ति, तदा सः धातुः सेट् भवति खलु. भवती वदतु, भवत्याः अवगमनं किम्?
अनेकाचः धातवः सर्वे सेट् भवन्ति इति परिच्छेदः वा भगिनि?
अत्र ये धातवः इति लिखितमस्ति खलु, द्वितीयबिन्दुः.
ये धातवः एकादशः सन्ति तेषु ये उदात्तः स्वरितः सन्ति ते अपि सेडः. ये धातवः एकादशः सन्ति तेषु ये उदात्तः स्वरितः सन्ति ते अपि सेडः. अतः अनुदात्तात् धातोः एव वलादि अर्थधातुकप्रत्ययस्य इडागमः निषिद्धः इति सूत्रेण उक्तं. तर्हि अनुदात्ताः ये एकादशः धातवः सन्ति ते अनिडः, अन्ये अपि सर्वे सेडः भवन्ति. इदानीं ये धातवः एकादशः सन्ति तेषु एकादशः सन्ति चेदपि तेषु उदात्तः स्वरितः अनुदात्तः अपि भवितुम् अर्हति अस्ति. तेषु ये धातवः उदात्तः स्वरितः सन्ति ते सेडः एव, ये अनुदात्तः अस्ति ते एव अनिटः इति अस्मिन् सूत्रे उक्तम्.
अग्रिमं वाक्यमपि पठतु.
तर्हि अनुदात्ताः ये एकाच् धातवः सन्ति ते अनिडः, अन्ये सर्वे सेडः भवन्ति इति
अग्रे लिखितमस्ति. निष्कर्षः,
निष्कर्षत्वेन अनेन सूत्रेण अवगच्छामः यत् एकाच् धातुषु अनुदात्तः अनिडः, उदात्तः स्वरितः च सेडः इति. इदानीम् एकाच् धातुः धातुषु अनुदात्तः एव अनिटः, अन्येभ्यः उदात्तः स्वरितः च सेटः एव इति.
एकाच् धातवः अनुदात्ताः सन्ति चेत् अनिटः. पूर्वं पठितवन्तः खलु स्वरवर्णानां प्रभेदाः सन्ति, उदात्तः अनुदात्तः स्वरितः. एकाच् धातुः अनुदात्तः अपि अस्ति चेत् अनिट् भवति. तादृशधातोः परं वलादि अर्धधातुकप्रत्ययः अस्ति चेदपि इडागमः न भवति. किन्तु धातुः उदात्तः, उदात्तः इत्युक्ते तत्र किमपि चिह्नं नास्ति, अवशिष्टस्वरस्य अधोभागे अथवा उपरि किमपि चिह्नं नास्ति, तदा सः धातुः उदात्तः. एकाच् धातुः अपि च उदात्तः, तादृशधातवः सेटः भवन्ति. अपि च एकाच् धातुः स्वरितः अस्ति चेत् तदा अपि सः धातुः सेट् भवति. अग्रे पठतु.
अर्थधातुकस्य इट् अर्थधातुकस्य एड् वलादेः नेड् वशीकृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते. तिङ् प्रत्ययस्य अर्थधातुकः अपि वलादिः अपि चेत् अयं प्रत्ययः इडागम अनुकूलः. कृत् प्रत्ययः वलादि अवशादिः चेत् अयं प्रत्ययः इडागम अनुकूलः. धातुः यः यः कोऽपि भवतु नाम प्रत्ययः इडागम अनुकूलः अस्ति चेत् इडागमस्य प्रसक्तिः अस्ति एव. तदा एकाच् उपदेशात् उपदेशानुदात्तात् इति सूत्रं धातोः वर्णनं करोति. अनेन सूत्रेण वलादि अर्थधातुकप्रत्ययानां अनुगुणम् इडागमस्य प्रसक्तिः चेदपि यत्र धातुः एकाच् अनुदात्तः तत्र इडागम निषिध्यते. अर्थधातुकस्य इट् वलादेः नेड् वशीकृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते. एतत् सूत्रं धातोः विषये अस्ति, एतत् एकाच् उपदेश अनुदात्तात् इति. परन्तु सूत्रद्वयम् यदुक्तम्, अर्थधातुकस्य इड् वलादेः अपि च नेड् वशीकृति, सूत्रद्वयम् अपि प्रत्ययस्य विषये उक्तमस्ति. किमुक्तम् इति चेत्, तिङ् प्रत्ययस्य अर्थधातुकप्रत्ययस्य प्रत्ययेषु तिङ् अस्ति चेत् तेभ्यः वलादि अपि अस्ति चेत् अयं प्रत्ययः इड् अनुकूलः.
किञ्चित् अत्र वक्तुमिच्छामि. वयं किं पठितवन्तः पूर्वं, तिङ्क्षित् सार्वधातुकम् इत्युक्ते सर्वे तिङ् प्रत्ययाः षित् प्रत्ययाः सार्वधातुकसंज्ञकाः. इत्युक्ते तिङ् प्रत्ययः सार्वधातुकसंज्ञकः भवति इति सामान्यसूत्रं किन्तु तत्र अपवादाः सन्ति अतः एव इदं वाक्यम् अत्र लिखितमस्ति तिङ् प्रत्ययाः यद्यपि सार्वधातुकसंज्ञकाः मूले तु तिंशित् सार्वधातुकम् इति सूत्रेण तिङ् प्रत्ययाः साक्षात् उक्तमस्ति इति कारणतः तस्मिन् सूत्रे ते सार्वधातुकसंज्ञकाः किन्तु अत्र वैशिष्ट्यं किम् इत्युक्ते लिट् लकारे आशीर्लिङ्ग्लकारे सः तिङ् प्रत्ययः आर्धधातुकसंज्ञकः भवति इति मुख्यवार्ता सूत्रद्वयमस्ति लिट् च लिङ्गाशीष् इति सूत्रद्वयेन लिट् लकारप्रत्ययः आशीर्लिङ्ग्लकारप्रत्ययः अपवादत्वेन आर्धधातुकसंज्ञकः भवति तिङ् प्रत्ययः अपि आर्धधातुकसंज्ञकः भवति लिट् लकारे अपि च आशीर्लिङ्ग्लकारे अयम् एकः अपवादः किन्तु अन्यत्र सर्वत्र तु तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः एव अन्यत्र सर्वत्र तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः अतः लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु तिङ् प्रत्ययाः सार्वधातुकाः इति कारणतः क्रीडागमचिन्तनम् अनावश्यकं किन्तु लिट् लकारः आशीर्लिङ्ग्लकारः तिङ् प्रत्ययाः आर्धधातुकसंज्ञकाः इति कारणतः तत्र इडागमचिन्तनं करणीयम् इत्युक्ते लिट् लकारे आशीर्लिङ्ग्लकारे इडागमचिन्तनम् अवश्यं भवति किन्तु लट् लोट् लङ् विधिलिङ्ग् एतेषु चतुर्षु लकारेषु इडागमचिन्तनम् अनावश्यकम् तिङ् प्रत्ययः आर्धधातुकः अपि वलादिः अपि चेत् इति वाक्यं तदर्थं लिखितमस्ति सामान्यतया तिङ् प्रत्ययाः तिंशित् सार्वधातुकं सूत्रेण सार्वधातुकसंज्ञकाः एव किन्तु अपवादत्वेन सूत्रद्वयेन तिङ् प्रत्ययाः आर्धधातुकसंज्ञां प्राप्नुवन्ति तदर्थं लिट्लकारे इडागमचिन्तनम् अवश्यं करणीयम् अत्र पश्यन्तु कृत् प्रत्ययः वलादिः अवशादिः अवशादिः इति कीदृशं पदं वदतु
नञ् प्रत्ययस्य योजनेन वशादि न वशादिः अवशादिः इति आगतम्
अत्र नञ् बहुव्रीहि समासः अस्ति वलादिः वशादिः अवशादिः इत्यादिषु पदेषु बहुव्रीहि समासः अस्ति खलु अवशादिः इत्यत्र नञ् बहुव्रीहि समासः अस्ति इत्युक्ते वलादिः वशादिः अवशादिः इमानि पदानि प्रत्ययस्य विशेषणानि भवन्ति अत्र कृत् प्रत्ययः इति लिखितमस्ति तस्मिन् प्रसङ्गे किञ्चित् वदतु
कृत् प्रत्ययः वलादिः अवशादिः चेत् इत्युक्ते कृत् अति अतिङ् इति सूत्रेण प्रत्ययः कृत् संज्ञा प्राप्नोति यदा कृत् संज्ञा प्राप्नोति तदा तस्य नेड् वशीकृति इति सूत्रेण इडागमः निषेधः भवति वा इति अपि चिन्तनीयं यत्र वशी वलादि अस्ति परन्तु वशी अपि अस्ति चेत् तत्र इडागमः निषेधः भवति
कृत् प्रत्ययानां प्रसङ्गे किञ्चित् ज्ञातव्यं धातुभ्यः विधीयमानाः प्रत्ययाः तिङ्गः न सन्ति चेत् कृत् प्रत्ययाः भवन्ति भगिन्या उक्तं कृदतिङ् सूत्रेण ये तिङ्गः न सन्ति ते कृत् प्रत्ययाः भवन्ति धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकं सिद्ध्यति उदाहरणं वक्तुमिच्छति वा अस्य कृते कृदन्तप्रातिपदिकं
कृदन्त पठितं
वदतु
खादितं गदः
उत्तमं धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकं सिद्ध्यति पश्यन्तु तत्र प्रातिपदिकमेव सिद्ध्यति इत्युक्ते तत्र यः शब्दसमुदायः अस्ति सः शब्दसमुदायः प्रातिपदिकसंज्ञां प्राप्नोति इत्युक्ते धातुतः कृत् प्रत्ययस्य योजनेन यत् शब्दस्वरूपं निष्पन्नं भवति तस्य प्रातिपदिकसंज्ञा भवति केन इत्युक्ते तत्र एकं सूत्रमस्ति कृत् तद्धितसमासाश्च इत्युक्ते कृदन्तपदानि तद्धितान्तपदानि सामासिकपदानि इमानि प्रातिपदिकसंज्ञां प्राप्नुवन्ति कृत् प्रत्ययस्य योजनेन यत् शब्दस्वरूपं निष्पन्नं भवति तत् शब्दस्वरूपं प्रातिपदिकसंज्ञां प्राप्नोति कृत् तद्धितसमासाश्च सूत्रेण तस्य प्रातिपदिकसंज्ञा भवति यत्र प्रातिपदिकसंज्ञा भवति तस्मात् परं सुप्रत्ययस्य योजनेन सुबन्तपदं भवति इत्युक्ते कृदन्तानि सर्वाणि अन्ततो गत्वा सुबन्तानि भवन्ति इत्युक्ते कृदन्तप्रातिपदिकम् आदौ सिद्ध्यति तस्मात् परं सुप्रत्ययस्य योजनेन सुबन्तं पदं साधयितुं शक्नुमः सुबन्तप्रक्रियायाः अनन्तरं कृदन्तप्रातिपदिकं सुबन्तं भवति एतद् अवगन्तुं भगिनी पठ् धातोः उदाहरणम् उक्तवती. पठ् इति धातुः अस्ति. पठ् धातुतः क्त इति कृत् प्रत्ययः, धातुभ्यः विधीयमानः प्रत्ययः क्त. पठ् धातुतः क्त इति प्रत्ययस्य योजनेन धातुः इडनुकूलः, प्रत्ययः अपि इडनुकूलः, अतः पठित इति नूतनप्रातिपदिकं सिद्ध्यति. पठित इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु, सप्तसु विभक्तिषु, त्रिषु वचनेषु, तत्र एकविंशतिसु प्रत्ययाः सन्ति खलु, तेषां योजनेन भिन्नानि सुबन्तपदानि निर्मातुं शक्नुमः. तदर्थमेव पठितं, तत्र प्रातिपदिकं तु पठित, किन्तु पठितं, पठिता, पठितः, पठितानि, इमानि इत्युक्ते एकविंशतिप्रत्ययानां योजनेन सुबन्तपदानि निर्मातुं शक्नुमः. आदौ कृदन्तप्रातिपदिकं सिद्ध्यति, तस्मात् परं कृदन्तपदनिर्माणं भवति.
अव्ययपदं चेत् तत्र प्रातिपदिकत्वं सिद्ध्यति वा? कृदन्ते अपि त्वान्तमस्ति, लिबन्तमस्ति, तत्सर्वम् अव्ययं भवति, तत्र प्रातिपदिकत्वं सिद्ध्यति वा?
सिद्ध्यति महोदय. अव्ययपदेषु सुप्रत्ययस्य लोपः भवति. आदौ सुप्रत्ययं योजयामः, तस्मात् परं सुप्रत्ययस्य लोपः भवति. तदर्थमेव अव्ययम् इति वदामः. पठित इत्यत्र कथाप्रत्ययः इडानुकूलप्रत्ययः, धातुः अपि सेट् धातुः, अतः इडानुकूलता वर्तते, अतः पठित इति रूपं भवति. अग्रे सरेम. अत्र डुक्रि धातोः उदाहरणं दत्तमस्ति. महोदय कृपया भवान् वदतु, रामचन्द्रन् महोदय, अग्रिमपरिच्छेदं.
यथा डुक्रिङ् धातुः, अयं धातुः एकाच् अपि अस्ति, अनुदात्तः अपि अस्ति, तदा तुमुन् प्रत्ययः, तुमुन् आर्धधातुकप्रत्ययः, तिङ् अपि नास्ति, षित् अपि नास्ति, अतः आर्धधातुकप्रत्ययः. तिङ् षित् सार्वधातुकम्, आर्धधातुकं शेषः. वलादिः अवशादिः अपि अस्ति, अतः आर्धधातुकस्येड्वदादेः इति सूत्रेण इडागमस्य प्राप्तिः अस्ति. किन्तु डुक्रिङ् एकाच् अनुदात्तः, अतः एकाच उपदेशे अनुदात्तात् इति सूत्रम् इडागमं निषेधयति. तदर्थं कर्तुम् इति रूपं भवति, न तु करितुम्. डुक्रिङ् इति धातुः, तत्र अयं धातुः, तत्र एकाच् भवति, तत्र अनुबन्धलोपात् ऋकारः एव अवशिष्टः भवति, तत्र ऋकारः इति एकः एव अच् अस्ति इति, अतः एकाच् धातुः भवति. तत्र अनुदात्तः अपि अस्ति, अतः तत्र तदा तुमुन् इति प्रत्ययः कृत् प्रत्ययः अस्ति, तुमुन् प्रत्ययः. अनन्तरं तुमुन् प्रत्ययः तु आर्धधातुकप्रत्ययः अस्ति, कारणं तिंशित् सार्वधातुकम् इति सूत्रेण अत्र कृदन्तं तत् तिङ् अपि नास्ति, षित् अपि नास्ति इति कारणेन तत् अर्धधातुकं भवति. तिंशित् विहाय अन्य सर्वम् अर्धधातुकं भवति. सूत्रम् अर्धधातुकं शेषः इति. वलादिः अवशादिः अपि अस्ति, अतः तत्र अर्धधातुकस्य इड्वलादेः इति सूत्रेण तत्र इडागमस्य प्राप्तिः अस्ति. किन्तु डुक्रिङ् एकाचः अनुदात्तः अस्ति इति कारणेन एकाचः उपदेशे अनुदात्तात् इति सूत्रेण तत्र इडागमस्य निषेधः भवति, अतः कर्तुम् इति रूपं सिद्ध्यति, न तु करितुम्.
उत्तमम्. अत्र अस्माकम् अवगमनार्थम् इदम् उदाहरणं दत्तमस्ति. औपदेशिकधातुः डुक्रै, अनुबन्धलोपे सति क्रु. पश्यन्तु, क्रु इत्यत्र ऋकारस्य अधोभागे एका रेखा अस्ति, रेखा अस्ति इति कारणतः अयं ऋकारः अनुदात्तः इति अवगन्तुं शक्नुमः. इत्युक्ते अनुबन्धवर्णानां लोपकार्यानन्तरम् एकः एव अचुवर्णः अस्ति अस्मिन् धातौ. सः अचुवर्णः कः? ऋकारः. सः ऋकारः इतोपि कीदृशः? अनुदात्तः. रेखा अस्ति इति कारणतः धातुः एकाच् अपि च अनुदात्तः. अतः एकाच उपदेशे अनुदात्तात् इति सूत्रेण यद्यपि धातोः परं वलाद्यार्धधातुकप्रत्ययः सेट् प्रत्ययः अस्ति चेदपि धातौ एव आनुकूल्यं नास्ति. धातुः एव अनिट्, एकाच धातुः अनुदात्तः. अतः अत्र इडागमः न अर्हति. एकाच उपदेशे अनुदात्तात् सूत्रेण इडागमः निषिध्यते. यद्यपि तुमुन् प्रत्ययः सेट् प्रत्ययः. तुमुन् इत्यत्र किम् अवगन्तव्यं? तुमुन् तिंशित् नास्ति, आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः, आर्धधातुककृत् प्रत्ययः. अपि च तुमुन् इत्यत्र आदिमवर्णः तकारः. सः तकारः वल् प्रत्याहारस्थवर्णः. अपि च प्रत्ययः कृत् प्रत्ययः. कृत् प्रत्ययः अस्ति इति कारणतः वशादिः अस्ति वा इति अपि चिन्तनीयम्. नेड् वशीकृति इति सूत्रेण तत्र इडागमः निषिध्यते वा इत्यपि चिन्तनीयम्. तकारः वशादिः नास्ति, अवशादिः. सारांशः कः? तुमन् वलादिः अवशादिः. इत्युक्ते वलादिः वशादिः इमानि पदानि प्रत्ययस्य विशेषणानि भवन्ति. अत्र प्रत्ययस्य विशेषणं, प्रत्ययः कीदृशः? तुमन् वलादिः अपि च अवशादिः इति कारणतः सेट् प्रत्ययः. प्रत्ययः सेट्, किन्तु धातौ एव आनुकूल्यं नास्ति. एकाच् अनुदात्तधातुः, क्रू धातुः. अतः इडागमः न अर्हति इति कारणतः अत्र रूपं कर्तुं न तु करितुं. करितुम् इति अशुद्धं रूपम् इति वार्ता. उत्तमं महोदय, धन्यवादाः. अहं भूधातोः प्रसङ्गे किञ्चित् दृष्टवती, तदर्थं भूधातोः प्रसङ्गे किञ्चित् वदामि. भूधातुः सेट् धातुः. भूधातुः सेट् अस्ति इति कारणतः तस्मात् परम् आर्धधातुकतिङ्प्रत्ययः इत्युक्ते लृट्लकाररूपं पश्यामश्चेत् भविष्यति इति रूपं भवति. यथा पठिष्यति एवमेव भूधातुतः भविष्यति इडागमयुक्तं रूपं सिद्ध्यति. स्या प्रत्यये परे स्या इति लृट्लकार लकारनिमित्तिकविकरणप्रत्ययः. अपि च लुट्लकाररूपं लुट् भिन्नः, लुट् भिन्नः. लुट्लकाररूपं पश्यामश्चेत् भविता इति रूपं सिद्ध्यति. भविष्यति, भविता, ईदृशानि रूपाणि आर्धधातुतिङ्प्रत्ययेषु परेषु ईदृशानि इडागमयुक्तरूपाणि सिद्ध्यन्ति. भवितव्यं तत्रापि इडागमः अस्ति. किमर्थं चेत् तव्यत् प्रत्ययः सेट् अस्ति. तव्यत् इत्यत्र तकारः अस्ति खलु, अतः भवितव्यम् इति रूपम्. अनियर् रूपमस्ति भवनीयं. तत्र अनियर् इति अनिट् प्रत्ययः. धातुः सेट् एव, किन्तु तस्मात् परम् अनियर् अस्ति इति कारणतः भवनीयम् इति रूपमस्ति. कर्मणि लट् रूपं किम् अस्ति? भूधातोः कर्मणि लट् रूपं भूयते अस्ति. भूयते इत्यत्र कर्मणि प्रयोगे यक् इति प्रत्ययः विहितः भवति. यक् प्रत्ययः कित् अस्ति. अपि च यक् प्रत्यये आदिमवर्णः यकारः अस्ति खलु, यकारः वलि नास्ति. अतः कर्मणि लट् रूपेषु अपि इडागमः न दृश्यते. किन्तु भवन्तः सर्वे श्रुतवन्तः एव भूधातोः क्तान्तरूपं, क्तवतु रूपं, क्तवान्तरूपं, क्तिन् प्रत्ययान्तरूपम्. एतानि रूपाणि पश्यामश्चेत् भूधातुतः भूत, भूधातुतः भूतवान्, भूधातुतः भूतिः, भूधातुतः भूत्वा. पश्यन्तु, क्ताप्रत्ययः, क्तवतु प्रत्ययः, क्तिन् प्रत्ययः, एते प्रत्ययाः तकारादिप्रत्ययाः. इत्युक्ते अनुबन्धलोपानन्तरं तकारादिप्रत्ययः. तकारादिप्रत्ययाः अपि च धातुः सेट् धातुः एव, किन्तु तत्र इडागमः न दृश्यते. भूधातुतः भूत, भूतवान्, भूतिः इत्यत्र धातुः अपि सेट्, प्रत्ययः अपि सेट्, किन्तु तत्र इडागमः न भवति. इत्युक्ते तत्र अपवादः अस्ति. एकेन विशिष्टसूत्रेण तत्र इट् निषेधः भवति. श्रुकः किति इति एकेन विशिष्टसूत्रेण भूतवान्, भूतिः, भूत्वा इत्यत्र इडागमनिषेधः भवति. इत्युक्ते सेट् प्रत्ययः सेट् धातुः अस्ति चेत् इडागमः भवति इति तु साधारणनियमः. अपवादाः सन्ति. इमानि पदानि अपवादस्य कृते उदाहरणानि इति वार्ता तत्र. भूधातुः तु सेट् एव. तस्मात् परं क्तवतु प्रत्ययः, क्ता प्रत्ययः, क्तिं प्रत्ययः, अनुबन्धलोपानन्तरं तकारादिप्रत्ययः. अपवादत्वेन तत्र इडागमनिषेधः. अपवादस्य प्रसङ्गे वदन्ती अस्मि, चिन्ता मास्तु. अत्र एकम् उदाहरणं दत्तमस्ति. रोहिणी भगिनी, भवती पठतु उदाहरणम्.
अधुना एकवारं समग्रं चिन्तनं क्रियताम्. निषिद्धम् इति धातुः, इमं धातुः दृष्ट्वा कीदृशी सूचना प्राप्तुं शक्येत, अपि च कथं निरनुबन्धधातुः साध्येत. निषिद्ध अनुदात्तस्वरस्य आकारस्य इत्संज्ञा, अतः धातुः अनुदातेत्. अनुदातेत् अतः अनुदात्तमितः आत्मनेपदम् इत्यनेन धातुः आत्मनेपदी.
पूर्णतया पठतु, पूर्णतया पठतु.
निषिद्ध आद्यं निडुडावः इत्यनेन नि इत्यस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपश्च. षिद आकारः अनुनासिका, अतः उपदेशजननासिक इत् इत्यनेन तस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपश्च. षिद् अवशिष्टे धातौ प्रथमवर्णः इकारः किल, न तत्र न अत्र अस्माकं भ्रान्तिः न भवेत्. विन्यासः तथा भाति, किन्तु सा च केवलं लेखनस्य शैली. वस्तुतः आदिवर्णः षकारः, तर्हि धात्वादेहे शः सः इत्यनेन षकारस्य स्थाने सकारः. सिद् इति धातुः, सिद् इति निरनुबन्धधातुः. सिद् इति धातौ अवशिष्टस्वरः इकारः, स च इकारः उदात्तः, यतोहि मूलधातौ तस्मिन् इकारे किमपि चिह्नं नास्ति. अयं धातुः एका च अपि अस्ति, एका च उपदेशे अनुदात्तात् इत्यनेन इडागमस्य निषेधः नास्ति, अतः अयं धातुः सेट्. अवधेयम्, अयं धातुः उदात्तः किन्तु उदात्तेत् न, तत्र भेदः अवगन्तव्यः. निषिद्ध इति धातुः उदात्तः, परन्तु अनुदात्तेत् उदात्तः इति कारणेन धातुः सेट्, अनुदात्तेत् इति कारणेन धातुः आत्मनेपदी. अग्रे गत्वा अस्य सिद् धातोः प्रयोगं कृत्वा यत्किमपि रूपम् अपेक्षितं, तिङन्तं स्यात् वा कृदन्तं स्यात्, प्रक्रियायां सिद् इत्यस्य प्रयोगः करणीयः. सिद् इति निरनुबन्धधातुः प्रक्रियार्थं सिद्धः.
वक्तुमिच्छति वा श्रोतुमिच्छति वा?
श्रोतुमिच्छामि.
नरसिंह हेग्डे महोदय, कृपया वदतु अत्र किं लिखितम्.
निष्विदा इति धातुः, इमं धातुं दृष्ट्वा कीदृशी सूचना प्राप्तुं शक्यत, अपि च कथं निरनुबन्धधातुः साध्येत. निष्विदा अत्र धातु अस्ति उपदेशे, अनुदात्तस्वरस्य अकारस्य इत्संज्ञा, अतः धातु अनुदात्तेत्. अनुदात्तेत् अतः अनुदात्तनितात्मनेपदम् इत्यनेन धातु आत्मनेपदे भवति. अत्र अन्तिमदकारोत्तरवर्ति आकार यत् अस्ति तत् अनुदात्त अस्ति, अतः अनुदात्तनित आत्मनेपदम् इत्यनेन धातु आत्मनेपदे धातु भवति. निष्विदाः आदिर्निटुडव इत्यनेन आदिमनि इत्यस्य इत्संज्ञा भवति, तस्य लोप इत्यनेन लोपश्च भवति. इत्संज्ञासूत्रमस्ति आदिर्निटुडव इति, तत्र आदिमनिकारस्य इत्संज्ञा भूत्वा तत् अपगच्छति. श्विदा, श्विदा इति इदानीम् अस्ति. अत्र अनुनासिक आकार अपि उपदेशे जुनासिक इत्यनेन इत्संज्ञा भूत्वा तस्य लोप इत्यनेन लोप भवति. श्विद् इति अवशिष्यते. अवशिष्टधातोः प्रथमवर्ण इकार किल, न अत्र अस्माकं भ्रान्तिः न भवेत्. विन्यासः तथा भाति, किन्तु सा च केवलं लेखनस्य शैली. वस्तुतः आदिवर्णे शकारः अस्ति, तर्हि धात्वादेशे स इत्यनेन शकारस्य स्थाने सकारः. अत्र प्राकृतिककारणे भवन्ति, अत्र आदिमने शकारः अस्ति, अनन्तरम् वकारः अस्ति, अनन्तरम् इकारः अस्ति. परन्तु यथा दृष्टुम् इकारः प्रथमम् अस्ति इति भ्रमः भवति, परन्तु तथा नास्ति. आदिमशकारः मूर्धनिषकारः अस्ति तत् धात्वादेशस इति सूत्रेण तस्य दन्त्यसकारः भवति स्विद् इति भवति निरन्तरमन्दधातुः अत्र अवशिष्टस्वर इकारः अस्ति इकारः अत्र किमपि चिह्नं नास्ति धातु एकाचपि अस्ति केवलम् इकारः अस्ति एकमेव स्वरः अस्ति इकारः तत्र कोऽपि चिह्नं नास्ति तत् अतः उदात्तस्वरः भवति चिह्नं नास्ति इति कृत्वा एकाच उपदेशनात्तात् इत्यनेन इडागमनिषेधः नास्ति अतः अयं धातु सेट् भवति यदि अनुदात्तः भवति तर्हि तत् अनिट् भवति परन्तु अत्र उदात्तः अस्ति अतः धातु सेट् भवति सिद्ध इति धातु
उत्तमं तदेव अत्र विषयत्रयमस्ति अनुबन्धवर्णानां लोपकार्यम् आदिनिटुडवः अपि च उपदेशजनुनासिकयित् इत्याभ्यां सूत्राभ्याम् इत् संज्ञकवर्णाः भवन्ति तस्य लोपः इत्यनेन तयोः लोपः इत्युक्ते णि इति वर्णसमुदायस्य लोपः आदिर्निटुडवः इत्यनेन पश्यन्तु ञकारः च वर्गीय अन्तिमव्यञ्जनम् आदौ अस्ति किन्तु तत्र हलन्त्यम् इति सूत्रेण नापगच्छति आदिर्निटुडवः इति सूत्रेण वर्णसमुदायस्य लोपः भवति अतः अयं धातुः णित् इति न वदामः धातुः णित् अस्ति चेत् किं भवति इत्युक्ते चवर्गीय अन्तिमव्यञ्जनम् अन्ते अस्ति अपि च हलन्त्यमित्यनेन अपगच्छति चेत् स्वरितनित्यकर्तृभिप्रायक्रियाफले इति सूत्रेण उभयपदी भवति स्म किन्तु तादृशी स्थितिः अत्र नास्ति चवर्गीय अन्तिमव्यञ्जनम् अनुनासिकव्यञ्जनम् आदौ अस्ति अपि च वर्णसमुदायः एकस्मिन् समये युगपत् आदिनिटुडवः इत्यनेन अपगच्छति इति कृत्वा अयं धातुः णित् इति न कथयितुं शक्नुमः णित् अस्ति चेत् स्वरितनित्यकर्तृभिप्रायसूत्रेण उभयपदी भवति स्म किन्तु तादृशी स्थितिः अत्र नास्ति अनुबन्धवर्णानां लोपकार्यम् एवमेव करणीयम् अपि च धातोः अन्ते अनुनासिक आकारः अस्ति अनुनासिक आकारस्य इत्संज्ञा भवति सः अनुनासिक आकारः अनुदात्तः अपि अतः धातुः कीदृशः अनुदात्तेट् धातुः इत्युक्ते अनुदात्तस्वरवर्णस्य इत्संज्ञा भवति अस्मिन् धातौ अनुदात्त आकारस्य इत्संज्ञा भवति इति कारणतः धातुः अनुदात्तेत् अतः अनुदात्तनित आत्मनेपदं सूत्रेण आत्मनेपदी एव भवति भवन्तः सर्वे पश्यन्ति चेत् अयं स्विद् धातुः भुवादिगणे अस्ति गणेष्विदां धातुः भुवादिगणे स्नेहमोचनयोः इत्यस्मिन् अर्थे धातुः अस्ति तस्य रूपं स्वेदते आत्मनेपदी अनुदात्तेत् धातुः अतः आत्मनेपदी इति एका वार्ता अन्या वार्ता का धातुः सेट् वा अनिट् वा अत्र इतोपि अन्यानि चिह्नानि न सन्ति अनुबन्धवर्णानां लोपकार्यानन्तरं स्विद् इति निरनुबन्धधातुः स्विद् इत्यत्र इकारः अस्ति सः इकारः उदात्तः तत्र स्वरितचिह्नं नास्ति अनुदात्तचिह्नं नास्ति इति कारणतः उदात्तः धातुः एकाचेव किन्तु उदात्तः अतः इडागमनिषेधः न भवति पश्यन्तु निषेधः न भवति इत्युक्ते डबल् नेगेटिव् इत्युक्ते इडागमः भवितुम् अर्हति इति अर्थः अतः धातुः सेट् तदर्थमेव रूपाणि पश्यामश्चेत् स्वेदितुं स्वेदितव्यं तव्यत् रूपं पश्यामश्चेत् स्वेदितव्यं स्वेदिष्यति स्वेदितुं किन्तु ल्युट् रूपं स्वेदनम् अनियर् स्वेदनीयम् इति रूपाणि भवन्ति अयं धातुः तु भुवादिगणीयः एव दिवादिगणे अपि एकः धातुः अस्ति श्विद् धातुः किन्तु तस्य अर्थः भिन्नः गात्रप्रक्षरणे इत्यस्मिन् अर्थे अस्ति तस्य रूपं स्विद्यति दिवादिगणीय स्विद् धातोः रूपं स्विद्यति तत्र श्यन् अस्ति खलु अतः स्विद्यति तद्रूपं परस्मैपदरूपं किन्तु अत्र यः धातुः स्वीकृतः सः धातुः भुवादिगणीयः एव इति समग्रचिन्तनं पश्यन्तु अत्र क्रियताम् इति रूपम् अस्ति खलु क्रू धातोः कर्मणि लट् क्रियते क्रू धातोः कर्मणि लोट् क्रियताम् एवमेव अत्र शक्येत इति पदमस्ति शक्येत इति कीदृशं पदम् इति परिशीलयामश्चेत् कर्मणि विधिलिङ्ग् शक्यते इति कर्मणि लट् शक्येत इति कर्मणि विधिलिङ्ग् एवमेव साध्यते इति कर्मणि लट् कर्मणि विधिलिङ्ग् साध्येत इति कर्मणि विधिलिङ्गरूपमस्ति तत्र लट्लकाररूपमस्ति साध्नोति कर्तरिलट् भिन्नं कर्मणि लट् भिन्नं भवन्तः जानन्ति एव केवलं पुनस्मरणार्थं वदन्ती अस्मि साध् धातुः स्वादिगणे अस्ति अतः तस्य रूपं साध्नोति स्वादिभ्यः स्नुः खलु अतः साध्नोति अत्र निष्कर्षत्वेन अग्रिमे वाक्ये किञ्चित् लिखितमस्ति सुन्दरमहोदय भवान् पठित्वा वदतु अवधेयम्
अयं धातुः उदात्तः किन्तु उदात्तेत् नास्ति उदात्तः अयं धातुः उदात्तस्वरस्य इत्संज्ञा न भवति तस्मात् कारणात् अयं धातुः उदात्तेत् नास्ति परन्तु धातुः उदात्तः एव तत्र भेदः अवगन्तव्यः निष्विदाम् इति धातुः उदात्तः परन्तु अनुदात्तेत् तदेव उदात्तः इति कारणेन धातुः सेट् अनुदात्तेत् इति कारणेन धातुः आत्मनेपदी एतदेव अवगन्तव्यं धातुः अनुदात्तेत् इति कथनेन अनुदात्त चिह्नं अधोभागे चिह्नम् अस्ति तत्स्वरः इत्संज्ञा भूत्वा लोपः भवति तस्मात् कारणात् एव अनुदात्तेत् इति कथ्यते तदेव धातुः आत्मनेपदी भवति परन्तु अत्र अनुदात्तेत् विदाम् इति धातुः उदात्तः परन्तु अनुदात्तेत् इति वार्ता
अनुदात्तेत् अतः आत्मनेपदी उदात्तः अतः सेट्
सेट् उदात्तः अतः सेट् भवति
अग्रे
गत्वा अस्य स्विद् धातोः प्रयोगं कृत्वा यत्किमपि रूपम् अपेक्षितं तिङन्तं स्यात् वा कृदन्तं स्यात् प्रक्रियायां स्विद् इत्यस्य प्रयोगः करणीयः स्विद् इति निरबन्धधातुः निरनुबन्धधातुः प्रक्रियायां सिद्धः प्रक्रियार्थं सिद्धः ओके सो अस्य स्विद् धातोः प्रयोगं कृत्वा यत्किमपि रूपम् अपेक्षितं यद्यपि यत्कोपि रूपम् अस्माभिः अपेक्षितं तिङन्तं वा कृदन्तं वा प्रक्रियायां स्विद्येव प्रयोगः करणीयः इति लिखितमस्ति अत्र
स्विद् धातुतः लटि रूपं स्वेदते साधयतु
स्वेदते स्विद् इति धातुः तत्र इगुपदधातुः उपधायाम् इक् वर्णः अस्ति इति इगुपदधातुः तत्र स्विद् इति किं गणे अस्ति गणे
भवादिगणे अस्ति
नेपदि भवादिगणे अस्ति इति कारणेन षप्रत्ययः योजनीयः स्विद् योगे शप् योगे तिप् शप् लषक्वतदिते इति सूत्रेण शकारस्य लोपः शकारस्य इत्संज्ञा भूत्वा लोपः हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा लोपः अत्र तिंशित् सार्वधातुकम् इति सूत्रेण शप् प्रत्ययः सार्वधातुकप्रत्ययः अपि च तिंशित् सार्वधातुकम् अपि च आर्धधातुक
न अत्र तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकः अपि च षित्वमस्ति पित्वम् अस्ति
गुणस्य प्रसक्तिः अपि अस्ति इगुपदधातुः इति सूत्रेण उपधायां इक्वर्णः अस्ति इति कारणेन तस्य प्रसक्तिः अस्ति. अपि च तिंशित् सार्वधातुकमिति सूत्रेण सार्वधातुकपतिः अस्ति. पित् अपि अस्ति, पित्वात् तस्य गुणस्य प्राप्तिः अपि भवितुम् अर्हति.
केन सूत्रेण?
सार्वधातुक आर्धधातुकयोः इति सूत्रेण.
न,
पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इति सूत्रेण गुणस्य प्राप्तिः अपि अस्ति. तस्मात् स्विद् इति धातोः गुणः भूत्वा स्वेद् इति रूपं सिद्ध्यति. स्वेद् योगे योगे तिप्.
महोदय, तिप् इति वदामः वा? नो चेत् अत्र धातुः अनुदात्तेत् धातुः, अतः आत्मनेपदी.
तिप् इति ते इति ते इत इते इति इत इति रूपं सिद्ध्यति.
तत्र ता आतां झ इति प्रत्ययाः सन्ति, आत्मनेपदसंज्ञक प्रत्ययाः सन्ति. ता आतां झ, ता इति प्रत्ययं योजयामः आदौ. किन्तु तत्र अन्यानि कार्याणि सन्ति. टित आत्मनेपदानां टेरे इति सूत्रेण तत्र ते इति रूपं सिद्ध्यति. धातुः आत्मनेपदी, अतः स्वेदते इति रूपं भवति.
स्वेदते, स्वेद् स्वेद् योगे अयोगे ते स्वेद् स्वेदते इति अन्तिमं रूपं सिद्ध्यति.
उत्तमम्. इदं पदं तिङन्तपदं, कृदन्तपदम् एकं पदं साधयतु स्वेदितुं.
स्विद् धातोः तुमुन् तुमुन् प्रत्ययस्य योजनेन योजनेन तुमुन् प्रत्ययः नकारान्तः हलन्त्यम् इति सूत्रेण नकारः इत्संज्ञा भूत्वा लोपः भवति. तुम् तुम् इत्येव अवशिष्यते. स्वेद् आर्धधातुकसंज्ञकः अस्ति. तुमुन् प्रत्ययः आर्धधातुकसंज्ञकः अस्ति. तस्मात् सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणस्य
सार्वधातुकार्धधातुकयोः इति सूत्रम् इगन्तधातूनां प्रसङ्गे न तु लघुपदधातूनां प्रसङ्गे. इत्युक्ते धातुः लघुपदधातुः अस्ति चेत् पुगन्तलघुपदस्य च
इति सूत्रेण लघुपदम् ओके. तत् उपधायां लघु इक् वर्णः अस्ति इति कारणेन पुगन्तलघुपदस्य च इति सूत्रेण तस्य गुणस्य प्राप्तिः अपि अस्ति. तदेव स्विद् स्विद् गुणः भूत्वा स्वेद् इति भवति. तस्य तुमनन्तं तुम् इति
प्रत्ययः तुम् अस्ति
तत्र इडागमः भवति इति कारणेन स्वेदितुम् इति रूपं सिद्ध्यति. अन्तिमं रूपं सिद्ध्यति इडागमः भूत्वा स्वेदितुम् इति अन्तिमं रूपं.
पश्यन्तु, तदेव अत्र लिखितमस्ति, धातुः उदात्तः अतः सेट् धातौ आनुकूल्यम् अस्ति. सेट् धातुः, अपि च तस्मात् परं तुमुन् प्रत्ययः अस्ति. तुमुन् आर्धधातुक वलादिप्रत्ययः अवशादिः, अतः तुमुन् प्रत्ययः अपि इडनुकूलः एव. धातुः अपि सेट्, प्रत्ययः अपि सेट्, अतः स्वेदितुम् इति इडागमयुक्तं रूपं द्रष्टुं शक्नुमः. किन्तु ल्युट् स्वेदनं, तत्र इडागमः न दृश्यते. स्वेदनीयं वदतु पूर्णतया मास्तु. धातुः प्रत्ययः कीदृशः वदतु.
धातुः स्विद् अस्ति. तत्र धातुः सेट् अस्ति. प्रत्ययः ल्युट् प्रत्ययः अनिट् भवति. अनिट् भवति. किमर्थम् अनिट् भवति? टकार यु यु एव अवशिष्यते. युवोरनाको इति सूत्रेण अन इति रूपं सिद्ध्यति. अवशिष्ट आदेशः भवति स्वेद स्वेदनम् इति रूपम् अन्तिमं रूपं सिद्ध्यति.
स्वेदनं तत्र ल्युट् प्रत्ययः अस्ति. ल्युट् अपि अनिट् प्रत्ययः, अनियर् अपि अनिट् प्रत्ययः, तव्यत् प्रत्ययः सेट्. अतः स्वेदितव्यम् इति रूपं, स्वेदितुं स्वेदितव्यम् इत्यादीनि रूपाणि सिद्ध्यन्ति. साधु महोदय, अत्र एकमेव वाक्यं लिखितम् अस्ति, तद्वाक्यं पठित्वा समापयामः. सत्यभामा भगिनी वदतु.
धातूनां प्रवृत्तिः. अजन्तदादवः आधिक्येन अनिटः, किन्तु तत्र सर्वे ऊकारान्ताः ऋकारान्ताः च सेटः. हलन्तदादवः आधिक्येन सेटः. हलन्तदातुषु 103
कथं वदामः?
त्रय अधिक एकशतं.
त्रयाधिक एकशतम्.
एकशतं दादवः अनिटः इति. अत्र अजन्तदादवः आधिक्येन अनिटः, किन्तु सर्वे ए दादोः अन्ते अचुवर्णः अस्ति चेत् तादृशदादवः सर्वे अनिटः. अत्र ऊकारान्तः ऋकारान्तः विहाय सर्वे सर्वे अजन्तदादवः अनिटः, ऋकारान्तः अपि च उकारान्तः ते सेटः एव. तदा हलन्तदादवः आधिक्येन सेटः.
अत्र किं लिखितम्? ऊकारान्ताः धातवः सेटः. तदवगन्तुं भूधातोः उदाहरणं स्वीकुर्मः वा? भूधातुः दीर्घ ऊकारान्तधातुः सेटः इति अवगन्तुं तत्र रूपाणि पश्यामः. भूधातुः सेट्, तस्मात् परं लृट् योजनेन किं भवति? भविष्यत्कालरूपम्.
भविष्यत्काल लृट् प्रत्ययः
भूधातुतः लृट्
लृट् भविष्यति इति.
उत्तमं. तव्यत् योजनेन
भवितव्यम्.
उत्तमम्. एवमेव लृङ्लकारः, लृङ्लकाररूपम् अभविष्यत्. भूधातुः दीर्घ ऊकारान्तधातुः सेट्. वाक्यं पुनः पश्यन्तु. अजन्तधातवः आधिक्येन अनिटः. बहवः धातवः अजन्तधातवः. अजन्त इति कथनेन यस्य धातोः अन्ते अचुवर्णः अस्ति सः धातुः इति अर्थः. अजन्तधातवः आधिक्येन अनिटः, किन्तु दीर्घ ऊकारान्ताः दीर्घ ऋकारान्ताः धातवः सेटः भवन्ति. दीर्घ ऊकारान्तधातोः उदाहरणं भूधातुः. भविष्यति, भवितव्यम्, अभविष्यत् ईदृशानि रूपाणि सिद्ध्यन्ति. दीर्घ ऋकारान्ताः तृ इति धातुः अस्ति, भवती जानाति वा?
तृषिता इति वा?
तृ धातोः रूपं खलु तरति.
तरति,
तरणं, तरति,
तरिष्यति इति भवति.
उत्तमं. तृ इति धातुः दीर्घ ऋकारान्तधातुः. तत्र रूपाणि तरिष्यति, तरितव्यं, तरितुं, तरिता ईदृशानि रूपाणि, इडागमयुक्तरूपाणि द्रष्टुं शक्नुमः इति सारांशत्वेन अस्मिन् वाक्ये लिखितमस्ति. आधिक्येन अजन्तधातवः अनिटः, किन्तु ऊकारान्तः ऋकारान्तः सेटः. हलन्तधातूनां प्रसङ्गे किम्?
हलन्तधातवः आधिक्येन सेटः. अत्र इडागम अनुकूलः अस्ति हलन्तधातुषु. ते हलन्तधातुषु त्रयाधिक एकशतं धातवः अनिटः इति अपि दत्तमस्ति. अन्येभ्यः सेटः इति.
उत्तमं. वयं किं जानीमः? उपद्विसहस्रं धातवः सन्ति, अप्राक्सिमेट्लि 2000 धातुस्. तत्र ऊकारान्ताः ऋकारान्ताः सेटः, अपि च हलन्तधातुषु केवलं त्रयाधिक एकशतं धातून् त्यक्त्वा अन्यधातवः सर्वे हलन्तधातवः सेटः. इत्युक्ते केवलं त्रयाधिक एकशतं तान् धातून् त्यक्त्वा सर्वे हलन्तधातवः सेटः भवन्ति. एते धातवः अस्माभिः ज्ञातव्याः. किमर्थं चेत् आर्धधातुकप्रक्रियायां यदा वयम् आर्धधातुकतिङन्तरूपं साधयितुमिच्छामः अथवा आर्धधातुककृदन्तरूपं साधयितुमिच्छामः तदा धातुः सेट् वा अनिट् वा इति ज्ञातव्यं भवति. अतः कण्ठस्थीकरणीयं, इत्युक्ते हलन्तधातुषु त्रयाधिक एकशतं धातून् वयं कण्ठस्थीकुर्मः चेत् अस्माकं कार्यं सुलभं भवति इति मया श्रुतम्। अपि च अत्र अधोभागे केचन धातवः दत्ताः, तेषां प्रसङ्गे आगामिनि सप्ताहे चर्चां करिष्यामः। केन सूत्रेण धातुः आत्मनेपदी अथवा उभयपदी अथवा परस्मैपदी भवति, अपि च सः धातुः सेट् वा अनिट् वा इति तत्र वक्तव्यं भवति। सर्वे अभ्यासं कुर्वन्तु। अत्र तृजन्तरूपाणि, तृच् प्रत्ययः आर्धधातुकः, इडागमयोग्यः। तृच् प्रत्ययः इडनुकूलः एव, किन्तु तत्र धातुः कीदृशः इति दृष्ट्वा रूपं वक्तव्यम्। एतत् कार्यम् आगामिनि सप्ताहे सर्वे मिलित्वा करिष्यामः। भवन्तः सर्वे गृहपाठत्वेन कुर्वन्तु। अत्र विरमाम। सर्वेषां धन्यवादाः।
धन्यवादः।
धन्यवादः।